श्रीवाराही निग्रहाष्टकम् देवी क्रोडमुखी त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने मह्यं दृह्यति यो महेशि मनसा कायेन वाचा नरः तस्याशु त्वदयोग्रनिष्ठुरहला घातप्रभूतव्यथा पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः देवी त्वत्तदपद्मभक्तिविभव प्रक्षीण दुष्कर्मणि प्रादुर्भूतनृशंसभावमलिना वृत्तिं विधत्ते मयि यो देही भुवने तदीयहृदया निर्गत्वरैर्लोहितैः सत्यः पूरयसे कराब्ज चषकं वाञ्छाशफलैर्मामपि चण्डोत्तुण्डविदीर्णदंष्ट्रहृदया प्रोद्भिन्नरक्तच्छटा हालापानमदाट्टहासिनी नदाटोपप्रतापोत्कटम् मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वयम् ध्यानोद्धामरवैभवोदयवशात् सन्तर्पयामि क्षणात् श्यामां तामरसाननाङ्घ्रिनयना सोमार्थचूडाम्जगन् त्राणव्यग्रहलायुधाग्रमुसला सन्त्रासमुद्रावती ये त्वां रक्तकपालिनीं हरवरा रोहे वराहानना भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका भूतान्ता पुरुषायुषावधिकरी पाकप्रदा कर्मणा त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधी जन तस्यायुर्मम वाञ्छितावधि भवे मातस्तवैवाज्ञया मातः सम्यगुपासितुं जडमतिस्त्वा नैव शक्नोम्यहम् यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैषसं भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं सीदन्तं यमपाकृताथ्यवसितं प्राप्ताखिलोत्पादितम् क्रन्दद्बन्धुजनैः कलङ्किततुलं कण्ठव्रणोद्यत्कृमी पश्यामि प्रतिपक्षमाशुपतितं भ्रान्तं लुठन्तं मुहुः वाराही त्वमशेष जन्तुषु पुनः प्राणात्मिका स्पन्दसे शक्तिव्याप्तचराचर खलु यत् स्त्वामेतदभ्यर्थये त्वप्तादाम्बुजसङ्गिनो मम सकृत् पापं चिकीर्षन्ति ये तेषां मा कुरु शङ्कर प्रियतमे देहान्तरावस्थितम् इति श्रीवाराही निग्रहाष्टकम्।